श्रियकन्तः कन्तः परमपुरुषः कल्पतरुः द्रुमा भूमिश्चिन्तामणिगणमयी तोयमृतं कथा गानं नाट्यं गमनमपि वंशी प्रियसखी चिदानन्दं योतिः परमपि तदा स्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभिव्याश्च सुमहान् निमेषाद्वाक्यं वा व्रजति नहि यत्रापि समयः भजे श्वेतद्वीपं तमहमिह गोलोकम् इति यम् विदन्तः ते सन्तः क्षितिविरलचारः कतिपये श्रियकन्तः कन्तः परमपुरुषः कल्पतरुः द्रुमा भूमिश्चिन्तामणिगणमयी तोयमृतं कथा गानं नाट्यं गमनमपि वंशे प्रियसखे चिदानन्दं योतिः परमपि तदा स्वाद्यमपि च स यत्र क्षीराभिः स्रवति सुरभिभ्यश्च सुमः निमेषाद्वाक्यं वा व्रजति हरि यत्रापि समयः भजे श्वेतद्वीपं तमहमिह गोलोकम् इति यम् विदन्तः ते सन्तः क्षितिविरलचारः कतिपये।